नमस्सर्वेभ्यः. विद्याधर महोदय कृपया प्रार्थनां करोतु.
ॐ वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा.
सम्यक्, धन्यवादः महोदय. अस्तु, अहमेकं करोमि. एकैकं किं किं पूर्वं पठितम् इति एकवारं वदन्तु. प्रथमं कः वदति? हरिप्रिया भगिनी, वक्तुं शक्यते वा पूर्वं किं पठितवन्तः वयम् इति? हरिप्रिया भगिनी अस्ति वा? श्रूयते वा? कृपया अन्म्यूट् कृत्वा वदतु. अस्तु, लक्ष्मी भगिनी अस्ति वा? वक्तुं शक्यते वा? लक्ष्मी भगिनी अस्ति वा?
अहं गच्छामि.
तादृशं न भगिनि. प्रथमतया किं किं पठितवन्तः पुस्तके, किं प्रथमपाठं किम् आसीत्, तादृशं वक्तव्यम्. अवगच्छति वा किं वदामि इति?
भगिनि,
गतसप्ताहे आसीत् खलु?
ओके,
तावत् ततः किं किं दृष्टवन्तः अधुना? वाट् आर् आल् वि आर् टाकिङ्ग्?
ओके,
ऐ स्लोलि शार्ट्लि स्किपिङ्ग् इन् टु संस्कृत ओन्लि मोर् ओन्लि देन् एबल् टु अण्डर्स्टाण्ड्. वदतु, किं पठितवन्तः? प्रथमं किं पठितवन्तः वयम्? साहाय्यम् आवश्यकं वा भगिनि? लक्ष्मी भगिनी, साहाय्यम् आवश्यकं वा?
सारि, ऐ एम् नाट् एबल् टु सी.
का वदति?
आक्चुलि ऐ डोण्ट् नो हौ टु एक्स्प्रेस् दिस्.
प्रयत्नं करोतु. किं किं पठितवन्तः? यु केन् से इट् इन् इङ्ग्लिश् इफ् यु वाण्ट्.
For different verbs, how to use the different verbs for I go, or he goes, she goes.
Prathamam ityukte first iti artha. Did we do that in the first class?
Oh, you mean first class?
Prathamam ityukte first iti artha, Bhagini.
One second. Mama namaha bhavataha namakim, mama namaha.
मम नाम इति न, मम नाम एव.
स्पष्टतया
वदतु.
भवतः नाम किं? भवत्याः नाम.
अनन्तरं तदनन्तरं किं पठितवन्तः?
देन् एषः, देट् इस् फार् द पर्सन् हू इस् स्टाण्डिङ्ग् नियर् बै, फार् हिम् यु हेव् टु से एषः, अण्ड् फार् द पर्सन् हू इस् स्टाण्डिङ्ग् फार् अवे यु हेव् टु से सः.
यः समीपे अस्ति एषः, यः दूरे अस्ति सः, पुल्लिङ्गं चेत्. या समीपे अस्ति अथवा या दूरे अस्ति एषा सा इति स्त्रीलिङ्गं, स्त्रीलिङ्गे. अनन्तरं
नपुंसकलिङ्गं
समीपे वस्तु अस्ति चेत् एतत्, दूरे अस्ति चेत् तत् इति नपुंसकलिङ्गे दृष्टवन्तः. अनन्तरं अनन्तरम् इत्युक्ते नेक्स्ट् इति अतः वदतु कृपया. अनन्तरं किं दृष्टवन्तः इति?
यूसफ् कः का अनि किम्
अर्थम् अपि वदतु. कः इत्युक्ते अर्थं किं, का इत्युक्ते किं?
कः इस् फर् मेल् हू फर् का फर् फेमिनिन् जेण्डर्.
भगिनी अधुना भवती जानाति मेल् इत्युक्ते पुल्लिङ्गम् इति. वै डोण्ट् यु यूस् पुल्लिङ्गं स्त्रीलिङ्गम् इन्स्टेड् आफ़् मेल् फीमेल्?
कः पुल्लिङ्गम्?
अस्तु.
का स्त्रीलिङ्गं, किं नपुंसकलिङ्गम्?
अस्तु, धन्यवादः. विद्याधर् महोदय, तदनन्तरं किं पठितवन्तः इति वक्तुं शक्यते वा?
सः सा इस् दट् डन्? सारी, ऐ जस्ट् मूव्ड् औट् बिकास् नेट् वास् नाट् वर्किङ्ग्. सो
अस्तु, तद् अभवत्, तद् भगिन्या अभवत्, सा उक्तवती.
ओके,
कः का किं पर्यन्तं सा उक्तवती.
तदनन्तरे अस्ति नास्ति एतत् एतौ पठितवान्.
अस्तु, पठितवन्तः तादृशम्. अनन्तरम्
अनन्तरं स्थलसूचिका पदानां पठितवन्तः. अत्र, तत्र, कुत्र, सर्वत्र, अन्यत्र.
पूर्वं वा इति एकमपि पठितवन्तः. सा बालिका वा, आं, न इति द्वयम् अपि पठितवन्तः. तदपि कृपया स्मारयतु. स्मरणे अस्ति वा? सा बालिका वा, आं, सा बालिका. सः बालकः वा, आम्, तादृशम् अपि पठितवन्तः. अस्ति नास्ति उक्तवान्. स्थलं, स्थलस्थानम् इति चित्रं दृष्ट्वा अत्र तत्र वदतु. तदारभ्य वदतु.
समीपे यत् समीपे अस्ति तत् अत्र इति इत्युक्ते
सूचयामः.
यत् दूरे अस्ति तत् तत्र इत्युक्ते सूचयामः.
इत्युक्ते इति न, इति इति इत्युक्ते मीन्स् दट् मीन्स् इति एव अर्थः.
इति सूचयामः.
इति सूचयामः. सम्यक्.
प्रश्नार्थकरूपे कुत्र इति पृच्छयामः.
पृच्छामः. सम्यक्.
अपि तु सर्वत्र,
अन्यत्र,
एकत्र, एवं.
कृपया विवरणं करोतु. उदाहरणार्थं सर्वत्र इत्युक्ते सर्वे, सर्वस्थलां तिष्ठन्ति इति सर्वत्र इति.
अन्यत्र,
अन्यत्र
इत्युक्ते अन्यत्र इत्युक्ते समीपे नास्ति, अत्र नास्ति. एकत्र इत्युक्ते एकमेव स्थले,
एकस्थले एव,
एकस्थले एव भवति.
अस्तु, भवति अथवा अस्ति इति एकत्र. सम्यक्, उत्तमम्, उत्तमप्रयत्नं महोदय. सम्यक् अस्ति, धन्यवादः. अस्तु, अनन्तरं नित्या भगिनी वक्तुं शक्यते वा अनन्तरं किं दृष्टवन्तः इति? वदतु भगिनि. अत्र, तत्र, सर्वत्र, अन्यत्र, एकत्र, कुत्र, भवान् उक्तवान्, अनन्तरं, तदनन्तरं किं दृष्टवन्तः, किं मया पाठितम् अथवा भवन्तः पठितवन्तः इति एकवारं वदतु. भगिनी अस्ति वा किमपि वदतु भगिनी अस्ति वा Yeah, Bhagini, if you don't want to say, please mute yourself.
I don't understand the question, Bhagini, sorry.
Aham Muktavati, Purvam Vidyadhar Mahodayaha, Sarvatra Anyatra Kutra Pariyantam Uktavan. He revised till that. Tadanantaram Kim Drashtavantaha Eti Bhavati Vadatu.
अहं भवत्याः कुत्र पश्यामि
अहं न जानामि पुस्तकमस्ति खलु भवत्याः पार्श्वे पुस्तकमस्ति वा
पुस्तकम् अस्ति वा अस्ति मीन्स् वाट् भगिनि
उत्तमम् म्यूट् मध्ये तिष्ठतु कृपया विजय महोदय वक्तुं शक्यते वा विजय महोदय अस्ति वा विजय महोदय आर् यु देर् Mahoday, if you don't want to say, you can be in mute. I don't know why you are unmuted yourself and you're not talking. Rangarajan Mahoday, vaktum shakyate va.
Hello, madam, I will not be able to proceed because I need some more practice. Eh?
How after long do you?
We learn on this Tatsya, Yadatsya and all these things. And under one Pullingam usage and all those three lingam and all these things we learn.
Don't but say and all those. Specifically say what are all we learned.
That's what
I'm saying. Don't say these that specifically
say. That's what I'm telling. I will take some more time for practicing how to talk, then come back.
It's okay if you explain it in English. At least say something.
Datsya, Yadatsya, and afterwards we read about how to use the Datsya, Yadatsya, and Pullingam, Trilingam. Then yesterday, in the last class, we read about verb. Te Gacchami, Agacchami, and Pipati, and all these things. Finally, we had a sambhashana between the shop, say, shop owner and you know, the server and customer. Then finally we went to Agam Gacchami. So using Agam Gacchami, you have told us to say that, say 10 or 8 words, how to build it up and all these things. And ending with M, we used some of the say words. And that one you asked me to say Sa, Yes, and all these things. Okay, madam?
Astu. परन्तु इतोपि किञ्चित् अस्ति म्यूट् मध्ये तिष्ठतु कोऽपि वक्तुं शक्यते वा वाट् एल्स् वी सा किं किं पठितवन्तः यद् भवान् न उक्तवान्
That's what I want to tell you, Rom. We have learnt about that slokam.
Mahodaya, please be in mute. Vadatu Bhagini.
Etasya tasya tat anantaram.
Tad anantaram
avam. Avam, correct, is it?
Kim?
Vayam, Shashti Vibhakti api drishtavantaha.
Samyak, Shashti Vibhakti drishtavantaha. Astu.
Tadanantaram, Kriyapadani drishtavantaha.
Astu.
Kriyapadani evam.
Kriyapadani api drishtavan, Rangarajan Mahodayena. Gacchati api drishtavantalu, Gacchami ityapi.
Ha. Api tu dvitiya vibhakti api drishtavantah.
Dvitiya vibhakti api drishtavantah.
Krishakam etat.
Na. Krishakam iti astu. Aham krishakam pashyami iti asti eva.
Krishakah pratama vibhakti asti. Krishakam pashyami.
Samyak.
Like that we saw dvitiya vibhakti also.
Vishayadvayam bhavati tyaktavati. Vishayadvayam tyaktavati bhavati. Can you remember you left two things? Dvayam vishayam tyaktavati. Bhavati uktavati shashtivi bhakti iti parantu udaharanam rupena vadati chet uttamam bhavati.
Samyak shrunoti.
Udaharanam shakyateva shashtivi bhaktiyam. उदाहरणम् इत्युक्ते जानाति
किल षष्टि विभक्ति इत्युक्ते सम्बन्धे षष्टिः
उदाहरणं
रामस्य रामः प्रथमविभक्ति अस्ति रामस्य
पुल्लिङ्गः रामः इति पुल्लिङ्गपदं
रमा इत्युक्ते स्त्रीलिङ्गं
रामस्य
रमा स्त्रीलिङ्गपद अस्ति प्रथमविभक्ति रमायाः षष्टिविभक्ति अस्ति
अस्तु अनन्तरम् एकं सम्भाषणं पठितवन्तः खलु वितारकः अपि च ग्राहकः तत्र प्रामुख्यविषयमासीत् स्त्रीणि विषयम् आसीत् कोष्टकं रूपेण तत्र अस्ति खलु पुस्तके अधोभागे कोष्टकरूपेण त्रीणि विषयाणि सन्ति अत्र कृपया स्मारयतु किम्
आवश्यकं मास्तु पर्याप्तम्
आवश्यकं मास्तु
आवश्यकं मीन्स् ऐ वाण्ट् मास्तु मीन्स् इनफ् और् ऐ डोण्ट् वाण्ट् पर्याप्तं मीन्स् इनफ्
पर्याप्तम् उत्तमं सम्यक् उक्तवती धन्यवादः अस्तु अग्रिमं पुटे कृपया उद्घाटयन्तु अग्रिमपुटं कस्य क्रमः रूपा भगिनी पठति वा किम् अस्ति इति
हा पठामि भगिनि 2.3 तदेत् ओके एतत् चित्रं पश्यतु चित्रस्य आधारेण एकं सम्भाषणं लिखतु
सम्यक्
सी दिस् पिक् अनुवादं
अवश्यं वदतु
सी दिस् पिक्चर् based on this picture there is write a conversation sambhashanam conversation
samyak
ha anya pathami va
patatu parantu yat brackets madhi asti
ha brackets ha
sade
sambhashane ete shabdaha bhavantu these are the words in the sambhashana shatika चेलाः युतकं शाटिका चोलः युतकम् ऊरुकम् इति चोलः इस् ब्लौस् प्राब्लि ऊरुकम् इस् क्लात् अन्यद्वे पदा अर्थ न जानामि
युतकम् इत्युक्ते किम् उक्तवती
युतकं न ऊरुकम् ऊरुकम् इति क्लात्
अस्तु युतकं जानाति वा किम् इति
न जानामि
युतकम् इत्युक्ते शर्ट्
शर्ट् युतकं
उक्तवान् हू सेड् द अस्तु उत्तमं महोदय धन्यवादः युतकम् इत्युक्ते शर्ट् व्यर्थः
शाटिका अपि न जानामि
शाटिका इत्युक्ते सारि
सारि हा शाटिका चोलः युतकम् ऊरुकम्
अस्तु गायत्री भगिनी पुस्तके पठतु अधुना ऐ एम् नाट् शेरिङ्ग् एनी स्क्रीन् अस्तु धन्यवादः भगिनी सम्यक् उक्तवती शास्त्री महोदय वदति वा पत्नी इति अस्ति
I'll try, madam. प्रयत्नं करोमि पत्नी पृच्छति शाटिका
Okay, I will say it in English. You can try to translate probably. So imagine...
You say it in English actually.
okay, let us...
Do you have any other variety? Do you have any other color? Anyatra varnam... Anyatra varnam ashtiva...
Astu. Tadrisha Mahamadami. So she asked, can you please show me sari and some other materials? Can you try?
Difficult, madam. Anya to varnam, I can say. Anya varnam.
No, varnam. Prathamam to shatikam question. Prashyam hava chet. Anantram eva varnasya klesha.
Shatika fabric is it.
शाटिका इत्युक्ते सारी वस्तुतः सो फस्ट् सारी अण्ड् देन् ओन्ली द प्राब्लम् स्टार्ट् वित् द कलर् अस्तु अन्य कोऽपि वक्तुं शक्यते वा प्रयत्नं करोति वा एनीबडी एल्स् वाण्ट् टु गिव् इट् ट्रै
अहं
वात्सल्या खलु
केन् ऐ ट्रै
एकनिमिषम् ऐ जस्ट् वाण्ट् देर् एनीबडी एल्स् एनीबडी इस् नाट् नेचुरलि यू हव् टु
Can I try?
Yeah.
Kaha athava kha?
Can I try?
Namani uchchintu.
Raghunarayan.
Vadatu mahodaya, vadatu.
Kripaya. Patni, kripaya. Shatika. Urukam cha. Darshayati. दर्शयतु
अस्तु दर्शयतु इट्स् फैन् केन् यु ट्रान्स्लेट् अण्ड् से इट् फार् अदर्स् वाट् डिड् यु से
केन् यु प्लीस् शो सारी अण्ड् सम् अदर् मेटीरियल् फार् मी
ओके अत्र शाटिका इति न शाटिकाम् इति द्वितीयाविभक्ति द्वितीयाविभक्त्या वक्तव्यम् अथवा प्रथमाविभक्ति अपि शाटिकाम् इति एव शाटिकां चोलं न अत्र द्वितीया विभक्ति बिकास् दट् बिकम्स् एन् आब्जेक्ट् अस्तु शाटिकाम् ऊरुकं च इस् एण्ड् दर्शयति वा केन् यु शो मि
दर्शयति वा
अस्तु उत्तमम् अनन्तरम् अन्य कोऽपि सम्मन् एल्स् सेड् दे वाण्टेड् टु से इट् प्रयत्नं करोतु
अहम् अनुग्रह केन् ऐ ट्रै
आं भगिनि वदतु
तत् शाटिकस्य अन्यत्र वर्णं
न न
भगिनी प्रथमवाक्यं भवान् रघुनाथ महोदयेन उक्तं यत् पत्नी वदति महोदय शाटिकाम् अपि च चोलम् अथवा ऊरुकं दर्शयति वा केन् यु प्लीस् शो मी देन् वाट् विल् बि द आन्सर् फार् दट् बै द विक्रेता विच् इस् द पर्सन् हू इस् इन् द शाप्कीपर्
अवश्यं दर्शयामि
उत्तमम् अवश्यं दर्शयामि पश्यतु ऐ डेफिनेट्लि शो इट् प्लीस् सी अवश्यम् इति डेफिनेट्लि दर्शयामि मीन्स् ऐ विल् शो इट् टु सो शी आस्क् दर्शयति वा बिकास् शी वास् रेफरिङ्ग् टु हिम् केन् यू शो सो देट् वास् दर्शयति वा नौ हि सेस् ऐ विल् शो यू सो इट् इस् दर्शयामि अवश्यं दर्शयामि पश्यतु पश्यतु सी उत्तमं भगिनि सम्यक् वात्सल्या भगिनी अधुना वदति वा पतिः किं वदति इति
अन्यत्र वर्णे शाटिका मूरुकां च अस्ति वा
नो हस्बेण्ड् विल् वोरि अबौट् द कलर् पतिः किमपि अन्य किमपि पृच्छति अत्र चत्वारि वस्तूनि अस्ति शाटिका चोलः युतकम् ऊरुकमपि अस्ति चिन्तयतु
ओके 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 कृपया युतकं दर्शयति वा
अस्तु युतकम् ऊरुकं च दर्शयतु
ऊरुकं च दर्शयतु
अस्तु उत्तमं विक्रीतः किं वदति भवती एव वदतु
अवश्यं दर्शयामि
अस्तु पतिः एवं पृष्टवान् युतकं ऊरुकम् अपि अस्ति वा अस्ति चेत् दर्शयतु इति चिन्तयतु हि आस्क् इफ् यु हेव् पेण्ट् अण्ड् शर्ट् इफ् इट् इस् देर् देन् शो मि विक्रेता वदति अस्ति पश्यतु अस्तु उत्तमम् अन्य कोऽपि वक्तुम् इच्छति वा अन्य कोऽपि एनिवन् एल्स् वुड् लैक् टु ट्रै ऐ हर्ड् सम् मोर् वाय्स्
हरिप्रिया
वदतु
शीघ्रं स्वीकरोतु शीघ्रं स्वीकरोतु
न न अधुना पत्नी किमपि पृष्टवती विक्रेता उक्तवान् अस्ति इति पतिः किमपि पृष्टवान् तदपि अस्ति इति विक्रेता उक्तवान् अनन्तरं पतिः अधुना वदति
भगिनी सोरि भवती इङ्ग्लिश् can you please tell it in English?
You please be in mute. I'm hearing a lot of noise. I'm doing it already in both the languages. You can re-listen to the recording and then understand for sure. I'm intentionally doing it. Astu bhagini vadatu Haripriya bhagini. Pratamam patni pastavati
उक्तवती शाटिका अस्ति वा बहु सम्यक् अस्ति किञ्चित् अन्यत्र
अहं किमपि वक्तुम् इच्छामि पत्नी पृष्टवती महोदय शाटिकां चोलां च दर्शयति वा इति द्वितीयं विक्रेता वदति पश्यतु
पश्यतु यु प्लीस् सी पशी सी प्रथमा विभक्ति पश्यतु
मै क्वेश्चन् सिम्पल् डिड् यु अण्डर्स्टाण्ड् वाट् ऐ सेड्
नो नो ऐ वाण्ट् यु वेदर् ऐ हाव् टु टेल् वाट् द पति इस् टेलिङ्ग् इस् इट्
पत्नी ऐ सेड् सम्थिङ्ग् नौ डिड् यु अण्डर्स्टाण्ड्
ऐ एम् नाट् एबल् टु केच् यु I mean,
that is what I have been
you
asking
want me
you.
To tell?
You are not listening to me. You are only even talking. Please listen to me once. Prathamam patni iti asti va? Pashyati va? Pustake?
Patni.
Asti kila? They're right.
Asti. Yes.
For that, somebody said, Shatikam cholam dashayati va? Right? Second statement was completed by someone else saying Pashyatu. Which means see. which means speak. Third statement was third filled statement by someone filled asking yutakam murukam cha darshayitu.
Show me.
That as well.
That as well.
Fourth line was Vikreta said, Asti, Pashyatu. It is there, please see.
Okay, yeah, please see.
Panchamam asti patihi iti. After that, fifth line is patihi. Tatra kimapi vadatu. What could be the next question?
Samyak asti, aham svikaromi.
Finish up the conversation there. Don't you ask how much does it cost?
Jasti asti.
You did not even ask how much, then how do you say it is jasti? Jasti is not just a proper word, it's a different thing.
Cost, rupee ke?
Moolyam.
In Sanskrit.
Moolyam.
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 Kim moolyam.
You know how to ask what? You have been practicing what is your name. So from that you can take the what.
Kati rupyakani, kati rupyakani.
Haripriya Bhagini, Bhavati Eva Vadati. I already said cost of moolyam.
Moolyam.
Kati what moolyam. Is your name? How will you ask what is your name?
Bhavataha nama kim or bhavatyaga nama kim we ask.
Fine. Kim, what do you mean by kim?
How?
Please think logically, Bhagini. When you ask what is your name, bhavatyaha nama kim, will you ask how is your name?
Yes. No. What?
Ha. Moolyam kim?
Moolyam kim?
Moolyam kim.
Simple. I understand one thing nobody is practicing. So I need not put so much effort, I guess. I can simply go with the book and finish it. Whatever, yeah.
ऊरुकस्य मूल्यं किम्
उत्तमम् ऊरुकस्य मूल्यं किम् अथवा एतेषां मूल्यं किम् दे वाण्टेड् बै आल् आफ् डू एतेषां एतेषां मूल्यं किम् अस्तु
अस्तु अस्तु
अधुना वदतु विक्रेता किं वदति इमेजिन् सम् अमौण्ट् एण्ड् यु केन् फिल् इट् अण्ड् सम्वन् सेड् कति रूप्यकाणि दट् इस् आल्सो पर्फेक्ट् एतेषां मूल्यं किं वदतु भवती
वाट् इस् थौसण्ड् भगिनि
एकसहस्रं
मै गाड् एतेषां मूल्यं 5,000 अस्ति एतेषाम् आल् आफ् देम् शाटिकां चोलः
1,000 रूप्यकाणि अथवा 5,000
रूप्यकाणि
अस्तु सम्यक्
पत्नी वदति बहु अधिकमूल्यम् अस्ति किञ्चित् वाट् इस् लेस्
न्यूनं
किञ्चित् न्यूनं करोतु
दर्शयतु अथवा न्यूनं करोतु दट् इस् आल्सो
करोतु किञ्चित् न्यूनं करोतु
न्यूनं इस् आक्चुलि मिनिमम् यु केन् आल्सो यूस् इट् इन् दिस् सेन्स् अस्तु अधिकमस्ति न्यूनं करोतु इति
अधिकमस्ति
शास्त्रीमहोदय वदति वा अनन्तरं द्वितीय न लास्ट् टु लेन्स् विक्रेता अपि च पतिः किं वदति अस्तु हि रेड्यूसेस् सम् अमौण्ट् अण्ड् से टेक् इट्
अर्धसहस्रं न्यूनं करोमि
अस्तु
पत्नी If the lady is listening, then she will ask for one more sari probably.
Tad vastatah tad satyam, parantu atra, we have to finish up the dialogue. So you can say, astu svi karotu. Patihi vadati astu svi karotu.
Bhagini, what do you say if you want him to pack it? Astu svi karomi, please pack it and give.
Svi is like, okay, take it. That is what the pati says according to this sambhashanam.
Now, if he says astu svikaromi, please pack it for packing. What do we say?
Bandham karotu. Okay. But I've heard another word like potali karoti, but I don't know if that is a proper Sanskrit word. Or you can even say samputam. Samputam also means a packet. Bandham is the most appropriate, but bandham karotu, svi karotu. So I will read out the entire conversation once for you, like according to my imagination. Patni vadati prichati. Prichati means ask. She asked, the wife asked, shatikam cholam cha darshayativa. Can you show me sari and blouse? Vikreta. Who is the shopkeeper? Vadati. Pashyatu. Yes, see. Patihi vadati. Mama, yutakam urukam cha avashyakam. Asti cha dashayatu. I want pant and shirt as well. If you have it, then show it. Vikreta vadati. Avashyam asti. Pashyatu. Tadapi. Definitely, I have got, definitely see it. I have got it. Please see it. Patihi vadati, etesham mulyam kim, what is the price of all of this? Vikreta vadati, panchasahasram rupyakani iti. Patni vadati, ha, tavadva, adhikam kalu. Kinchit nyunam karotum hodya. She says, oh my god, this is too much. Can you just reduce it? Vikreta vadati, satyam bhagini astu. Dvi sahasram dadati. 2,000. I'll give it to you for 2,000. Patihi vadati astu. Bandham karotu svikaromi. Gachamaha. Dhanyavada. Is it okay, pack it, we'll take it. Let's go, thank you. Any doubt in this?
Bhagini,
when you said
avatva,
Tavad is old.
Tavad.
Much.
Okay, Tavad.
Or in colloquial language, Tavadeva means ya, ya. That is how we have to say. Tavadeva. Say like that only. Okay.
Tavad or Tavat?
Tavad. Id.
Da.
Da. Tavad. Tavad adhikamba means, oh, that costly it is.
I didn't follow it.
Tavad adhikam, adhikamva means, oh, it is that costly. Tavad adhikam, that costly.
Okay.
Okay, Prashna.
Bhagini, you said, urukam, urukam yutakam cha asti iti, you use cha to say, if you have. Did
no,
you
no,
use
cha is and, and.
And. So, can you please repeat that sentence, what the pati asked for the first?
Mama yutakam urukam cha avashyakam. So, cha is, I said cha is and. Now, you can use it at any time. You can either say pant and shirt or pant, shirt, and in Sanskrit. Urukam cha yutakam or urukam yutakam cha. Both are correct. So, he asked, mama yutakam urukam cha avashyakam. Asti chet dashayatu. If you have
chet. Chet. Chet means?
If you have it.
Sorry, I heard that as cha. So, confusion.
Adhuna buddham kadu. Now you understood.
Adhuna buddham kadu. Is that,
okay. Khalu means?
Khalu. ओके
अधुना बुद्धं खलु मीन्स् यु अण्डर्स्टाण्ड् यु अण्डर्स्टुड् इट् नो रैट्
हा
अस्तु अन्य कोऽपि प्रश्नः अस्ति वा
भगिनी भगिनी एकः सन्देहम् अस्ति भवती उक्तवती मम युतकम् ऊरुकं च आवश्यकं मम इस् इट् द रैट् मम मीन्स् मै रैट्
मै ऐ डिड् नाट् टीच् इट् यट् सो ऐ डिड् नाट् वाण्ट् टु कन्फ्यूस् मच्
ओके
then that will become a question unless I teach vibhakti I cannot I'm just using okay. minimum amount of words that I that you are already familiar with
okay but I just
so uttamam the observation is really good but it was intentional and you can use mama because you say mama nama which is my name is so it is I just wanted to say that even he wants something So for that I just used
okay.
it. Okay. Any other question?
Otherwise, do we use Mahyam there or how is it?
No, it is actually Mahyam because for me, which is Chaturthi. Hmm.
No, if I say I need shirt and... So okay. instead of mama what Mahyam, what should be
yutakam apeche urukam avashyakam
okay
any other doubts or shall I go to the next one
agre gachamah
astu agre gachamah tarhi uttamam agrimam kim asti upavishatu uttishtatu iti asti So these are all again Kriyapadam. Upavishatu means sit. Uttishtatu means stand. It's just sit, stand. So Prathamam Udaharanam Asti Gacchati. Saha Gacchati. Tvam Gacchatu. You go. He goes. You go. So for that, for you, we will be saying Tvam. Tvam means you. Saha Gacchati. Tvam Gacchatu. सा आगच्छति त्वम् आगच्छतु सो शीकं यूकम् अस्तु अस्तु वैद्यनाथन् महोदय प्रथमं करोतु पठति इति अस्ति
यथा गच्छति गच्छतु
गच्छति इस् फार् ही सः गच्छति और् सा गच्छति Gacchatu is for you. You go. Means Tvam Gacchatu.
Tvam Gacchatu. You go.
That I already said. Do the first one. Prathamam Karotu.
Tvam Patatu. Tvam Patatu.
Dhanyavadaha. Vijay Mahodaya. विजय महोदय अस्ति वा नित्या भगिनी अशोक महोदय
हलो हलो
पठातु एकनिमिषं भगिनी Who said hello? I did not see you.
This is Vijay here. I'm having some problem with my mic. Okay. Can you hear me?
Yeah. I can hear you.
Pathati.
Sa
pathati. Tvam pathatu.
Krutavan. Vaidhinathan Mahodeh Krutavan. Dvitiyam Karotu Bhavan. Do the second one. Dvitiyam Karotu. विजय महोदय श्रूयते वा? द्वितीया भगिनी भवती करोतु, द्वितीयं करोतु, प्रथमम् अभवत् द्वितीयं करोतु.
Once again, beginning, I'm taking the lesson, it got missed. Just one second. क्रीडति क्रीडतु सा क्रीडति
त्वं क्रीडतु
क्रीडति क्रीडति त्वं क्रीडतु
त्वं क्रीडतु सा क्रीडति अथवा सः क्रीडति उत्तमम् धन्यवादः भगिनी अशोक महोदय अन्यत् करोति वा तृतीयं करोतु
त्वं खादतु
सम्यक् त्वं खादतु खादति अपि वक्तव्यं चेत् वदतु सो देट् अदर्स् केन् लिसन् वन्स्
अहं सः खादति त्वं खादतु
सम्यक् धन्यवादः रूपा भगिनी
अस्ति भगिनि
इत्युक्ते सः अस्ति
अहम् अस्मि सः हसति त्वं हसतु
उत्तमं सः हसति अथवा सा हसति द्वयमपि समीचीनं हसतु सम्यक् धन्यवादः कविता भगिनी वदति वा
I'll be doing मिलति
आम्
सः मिलति या सा मिलति
या त्वं मिलतु हिन्दी भाषायाम् अथवा इति संस्कृतभाषायां सः मिलति अथवा सा मिलति
सा मिलति त्वं मिलतु
सम्यक् त्वं मिलतु उत्तमं धन्यवादः
थेङ्क् यू
चन्द्रा भगिनी
सः करोति त्वं करोतु
उत्तमम् अपि च सा करोति द्वयमपि समीचीनं
हा
अस्तु धन्यवादः पार्थसारथी महोदय
आगच्छति त्वम् आगच्छतु
सम्यक् धन्यवादः रङ्गराजन् महोदय
हलो
वदतु महोदय
सः प्रणश्यति त्वं प्रणश्यतु
ऐ डोण्ट् नो फ्रम् वेर् युर् रीडिङ्ग्
प्रणश्यति ऐ एम् यूसिङ्ग् दट् वर्ड् प्रणश्यति वाट् यु स्टार्ट् आफ्टर् वर्ड्स् यु नो आफ्टर् दिस् टेन् वर्ड्स् यु स्टार्ट् टेलिङ्ग् सम् मोर्
महोदय वि आर् इन् 2.4
I am reading that only. I am using the word pranasyadi. Sakap pranasyadi.
Anyone else see such word in that? Anugraha Bhagini, vadati va anantaram kinna siti.
Saha likhati, tvam likhatu.
Samyak, uttamam. Shastri Mahadeva.
Ramaha jalam pivati.
उत्तमं
त्वं पानकं पिबतु
सम्यक् रामः जलं पिबति त्वं पानकं पिबतु उत्तमं नयना भगिनी
सः नयति सोरि सः नयति सा नयति त्वं नयतु
उत्तमं सः नयति सा नयति त्वं नयतु सम्यक् वात्सल्या भगिनी
सः पश्यति त्वमपि पश्यतु
उत्तमं सः पश्यति यू आल्सो सी त्वमपि पश्यतु अपीर् आल्सो उत्तमं सम्यक् न नामं न सम्यक् पश्यामि. विरास् इति कोऽपि अस्ति वा? विरास् अट् जिमेल् डाट् काम् इति.
रघुना विरास्.
अस्तु अस्तु महोदय, वदतु. क्षम्यताम्, ऐ कुड् नाट् सी योर् नेम्, प्लीस् डोण्ट् मिस्टेक् मी अदर्.
ओके. सः तिष्ठति, त्वं तिष्ठतु.
इट्स् तिष्ठति, नाट् तिष्ठति. तव फस्ट् तव शुड् बी
तिष्ठति.
सः तिष्ठति,
तिष्ठति, त्वं तिष्ठतु.
उत्तमं, सम्यक्. श्रीलक्ष्मीप्रिया भगिनी.
सः भवति, त्वं भवतु.
उत्तमं. सः भवति, त्वं भवतु. सम्यक्. अस्तु. So is it clear to all? Any doubts in this? Do you have any kind of doubt?
What does tishtati mean?
Tishtati is like there, it's there.
Sitting there.
Kind of sitting. It's actually not properly sitting, but it's there. And you say dvichakrika atra tishtati, dvichakrika is there.
What standing do you say for standing? It is tishtati means standing, isn't it?
Uttishtati.
Uttishtati.
Yeah, in a way you can also say it for standing, tishtati, but uttishta is proper word. Yeah, you can use tishtati as well. When you add upasarga, it adds more emphasis. When I say uttishtati, it adds some emphasis to that. Any other doubt?
Eka sandeham asti bhagini.
Vadatu bhagya.
In Hindi and even in Kannada and maybe in Tamil as well, we say with respect, we use bahuvachanam, right? We will say aap. So how does it work in Sanskrit?
Sanskrit so, doesn't means, have anything. The whatever you say, it is only with respect.
Okay.
No differentiations in that. The only differentiation is that you often say is male and female, male and neutral gender.
I think when we say Bhavan, Bhavati, that itself is respectful. Like
no, it is actually not. No.
Huh?
No, it is not.
Okay.
There is no such thing that has been taught by somebody. I don't know how it came from where it came, but it is not. Any other queries? अहं मम स्क्रीन् दर्शयामि. ऐ विल् शो मै स्क्रीन् नौ. यू गाट् सम् एक्सैटिङ्ग् पिक्चर्स् टु लर्न् फर् टुडे. सो प्रथमं दिस् वि आलरेडि सा, जस्ट् टु रिवैस् इन् टु स्लैस् अण्ड् देन् विल् गो टु समथिङ्ग् न्यू. मम भवतः भवत्याः, दिस् वि आलरेडि सा. सत्यक्रमः. गायत्री भगिनी पठति वा? स्क्रीन्
ओके, ऐम् गोना ट्रै. मम
अङ्कनि.
मम अङ्कनी. मम लेखनी.
लेखनी, उत्तमं. मम अङ्कनी, मम लेखनी. सो हि सेस् मै पेन्सिल्. शी सेस् मै पेन्.
पेन्.
सम्यक्, धन्यवादः. अङ्कनी, लेखनी. अस्तु, वैद्यनाथन् महोदय. चित्रं पश्यतु किम् अस्ति.
भवत्या पुस्तकं भवत्याः पुस्तकं भवतः.
महोदय आङ्ग्लभाषायामपि वदतु, सर्वे अपि तादृशं करोतु कृपया. संस्कृतभाषायां वदतु अपि च आङ्ग्लभाषायां वदतु.
भवत्याः पुस्तकं इट्स् मै बुक्. My book by Srilingam.
Okay, then what is this? What is Mama Lekhani?
My pen.
Then Bhavatyaha is also my?
Bhavatyaha. Your Pustakam. Bhavatyaha. Yes. That
shown
is
in the picture, gent. That the guy, what?
Bhavatyaha Pustakam. Bhavatyaha. Ankani is Bhavataha, that's my book, and my pencil. He is saying my pencil and my book.
Vijay Mahodaya, can you correct him?
Bhavataha. Avataha Ankani, his pencil.
It's not his as well. From where did you learn this Bhavataha as his? I've been saying Bhavataha Namakim, Bhavatyaha Namakim is what is your name, what is your name?
Bhavataha Ankani, your pencil.
For of Bhavataha. Whom? You are represents what here?
A male.
Okay.
Pullinga. भवत्याः पुस्तकं योर् बुक् रेफरिङ्ग् टु फीमेल् स्त्रीलिङ्गम्
अस्तु. वैद्यनाथन् महोदय, केन् यु अण्डर्स्टाण्ड् नौ वाट् मिस्टेक् यु डिड्?
पुल्लिङ्ग स्त्रीलिङ्ग ऐ कुड् मेक् इट्.
नो, यु कम्प्लीट्लि चेञ्ज् इट्. यु सेड् भवत्याः पुस्तकं इस् मै बुक्. You see, but you miss out the details. You are just seeing, you are not grasping in that. Anyhow, I don't know.
Bhavatyaha Pustakam I can read. Bhavatyaha, it is your, that is a lady. He is saying your book.
Okay.
Bhavataha Ankani, that is, he is saying Pullingam, it is his pencil.
Mahodaya, it is not his, it is your. There is a huge difference between his and yours. Ungaloda nu solradhukkum avanoda nu solradhukkum there is a lot of difference. Do you understand that?
I will go back again. The first word we use is mama bhavatyaha nam kim.
This was a basic lesson. We did it for 2 days, if I am correct.
Yeah, I understand.
You are learning Sanskrit. I again remind you humbly, it is not Hindi, it is Sanskrit. Please be in mute. Nitya Bhagini.
Kutra means where. Tatra means there.
Uttamam. Kutra means where. Tatra means there. Now can you read this, these pictures? Can you try to interpret?
Kamalam kutra asti.
Samyak.
Kamalam tatra asti.
Astu. Okay, so what are all the things that you infer? Okay, you also read this particular picture and then say what are all your inference from this picture, okay? From these pictures, these two.
Pustakani kutra santi.
Uttamam.
Pustakani tatra santi.
Wonderful. Now can you let me know what are all the things that you have noticed here?
Lotus, where is the lotus? And the lotus is there. something alone, I think it be arranged or something.
What?
Kani book. Santi meaning.
No, I don't want you. I don't want you to read any of those. Read any
insert.
Of those. What you
insert.
What do you see in the picture? What do you see in the picture?
Bahuvachanam.
Others, please be mute. I am talking only to her. It's enough if she answers me.
I see four books and one lotus. Are two boys and two girls, or two ladies?
No, leave those. The context is only with this.
Yeah,
somebody
lotus.
Is saying that, forget that.
Okay. Lotus.
So
and
what are all the things that you infer from that?
They are talking about the lotus. Where is the lotus?
Okay.
And the lotus is there.
Okay.
And where are the books? The books are there.
Okay. So you understand there is a lotus and some books.
Yes.
You understand where and there, and apart yes. from that, singular and plural. Ekavachanam and Bahuvachanam there.
Yes.
Which is Kamalam. It's a singular. So you are using Asti. Pustakani. Mm-hmm. So Bahuvachanam of Pustakam is Pustakani. Bahuvachanam of Asti is Santi. So now I may request you to do plural of this and singular of this. Can you try it?
Kamalam.
Kamalam putra asti is singular.
Kamala. Kamalani. Putra. Santi.
Uttama.
Kamala. Tatram. Santi.
Why did you say tatram?
Atra Santi.
Can you do singular? Can you change this to singular?
Uttakam Atra Asti
Uttamam
Uttakam Satra Asti.
Samyak. Avagachativa, did you understand?
Yes, I did.
Okay, Uttam. Dhanyavadah. Ashok Mahodaya. Bhagini, please mute yourself. Yeah, now it's fine.
Kimartham.
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 Which means?
What is the meaning?
Why?
Oh, why?
Kimartham, why? Okay. These we will do it a little later. So so far we have done a couple of questioning words. One is Kim, another is Kutra, and the third one is Kimartham. Why? Okay. Astu Mahade, Dhanyavadaha. Rupa Bhagini, can you read this?
Kuta.
There is a visarga next to it. Can you please read
Kuta.
It?
Kutaha.
Kutaha. Kutaha means from where?
From where?
Can you read out all the four questioning words so far we have learned, including Kimartham and Kutaha?
Kimartham, Kutaha, Kim, Kutra.
Make it a proper order. First we saw Kim.
Kim.
Second
Kim.
We saw Kutra.
Kutra. Kimartham, Kutaha.
Samyak. So Kutaha is from there. Kimartham is why? Avagachati kalu?
Avagachati. Kutra is where. And Kutaha is from where.
From where.
Okay.
So when you want to ask where is the book, you will be asking Kutra asti pustakam.
Kutra asti. Pustakam kutra asti.
Now, when you want to know from where, for example,
Tvam kutaha agachati.
Agachati. Uttamam. From where are you coming?
Okay, Tvam
kutaha agachati. Samyak. धन्यवादः. कविता भगिनी,
कथम्?
You know what katham is, or do you want my help?
How many?
No, katham is how.
How? Katham asti.
Katham asti is how are you. So katham is how. Can you now revise all the five ones in the same order that I taught you?
No, without the slides, I cannot begin.
We have been repeating it over and over again. Try. Whatever comes to you, at least that.
Kata. Kutra.
What is Kutra?
Where?
Are you guys even writing whatever I say? Do you make notes?
This one I missed, Bhagini. I usually write it down. This one I missed.
Okay. Then others should be there, right?
Yeah.
Khatam you already know. Only two you'd have missed. What happened to the earlier ones?
Kimapi?
I don't know if I actually did. I say Kimapi is a question.
King.
Others, please be in mute. When your turn comes, you talk then. Kavita Bagini, please be in mute. Chandra Bagini, okay. Can you help out?
It was Kutra, Tatra, Kimartam.
Bhagini, I want only words that we use for questioning. Tatra is not a word to question.
Okay. Kutra. Okay. Kutra, Kimartam, Kutaha, Katam.
One more
Kim.
So Kim has to come first.
Yeah, I missed it.
After the order. Samyak. So Katam is how? Can you try to read this?
Me?
Yes, you only.
But the slide is just Katam there.
I changed it now, maybe a bit later.
Okay, now I got it. Bhavan Katam Asti. How are you? It is
so that is for a male. Mention that.
Pullinga. Yeah. Pullinga. Okay. How are you? Aham Samyak Asmi. Again, Pullinga. I am fine.
No, this is not for Pullinga.
I am good. Pardon?
This is common. Aham Samyak Asmi is common.
Okay. Aham Samyak Asmi.
Can you also read this?
Bhavati Katam Asti.
Uttamam.
Trilinga, how are you? Aham Samyak Asmi. It is common to male and female. I am good.
Asti. Dhanyavadaha. Swarthasarathi Mohriya, can you read this?
Kati.
Kati is?
Kati.
How many?
How many?
Chitram patatu.
Yeah. Kati balikaha santi.
Uttamam. Uttaram?
Pancha balikaha santi.
Uttamam. Kati balikaha santi. Because that's a plural. There are more than two girls. Okay. So santi.
Pancha
balikaha santi. Uttamam Mahajaya. Samyak. Dhanyavada. This we already saw, but still, Rangarajan Mahodaya, can you try to read this? We already did this, but still.
Mama.
Mahodaya, please read
mama,
your.
Mama ka, whatever mama ka, you mean. Mama karyamu. Samskrita.
Mahodaya, please read only the picture. not whatever is written, that is irrelevant.
Kutra.
What do you mean by kutra?
Kutra means who are you?
I don't know if you're
where are you?
Or not.
Where, from where you are coming?
There is no other word. This is simply kutra.
Kutra only. Kutra only, I'm telling you, where?
Only that, right? Where are you coming? Where, what? Nothing. No, nothing is there. Nothing
where,
else is there.
Where?
Astu, tat patatu. Kim asti. Etat evam patatu. Only this. Patatu mahodaya.
Madam, you are somebody. My phone is small, you know. I'll not be able to read it.
Astu, please be in mute then. Anugraha Bhagini.
Kutra jalam asti.
No, where you're reading. Read as what is given in the picture, so that there will not be any confusion or minimal confusion.
Jalam kutra asti. Jalam dronyam asti.
Samyak. Jalam dronyam asti.
Where is what? Anantram is. Ashatham kutra asti.
Aushadam
kutra asti. Aushadam chamase asti.
Chamase asti. Aushadam kutra asti. Aushadam
chamase asti.
Chamase asti. Dhanyavada. Shastri Mahodaya. Chitram dvayam patati.
Balakah kutra asti. बालकः आसन्दे अस्ति.
उत्तमं. बालकः कुत्र अस्ति? बालकः आसन्दे अस्ति. अनन्तरं
कमलं कुत्र विकसति? कमलं पुष्करिण्यां विकसति.
पुष्करिण्यां विकसति.
उत्तमं.
सम्यक् महोदय, धन्यवादः. नयना भगिनी. अस्मि इति वक्तव्यं भगिनी. अस्ति अस्ति इत्युक्ते he is asti. There or she is there? Asti. You want to say I am
asti.
Here.
Asti.
Asmi. Asti iti na.
Asmi. Asmi.
Asmi. Patatu bhagini, kim asti chitre?
Yeah.
Bhagini, Rupa asmi, ekam sandesham asti.
Patatu.
Asandaha iti seat. आसनः इति सीट् इति जानामि. आसन्दः अपि सीट् इति अर्थः वा?
ऐ डोण्ट् अण्डर्स्टाण्ड् योर् क्वेश्चन्.
ओके,
भगिनि, आसन्दे मीन्स् बालकः आसन्दे अस्ति. मीन्स् ही इस् आन् द चेर्, इसन्ट् इट्?
नो, लेट् हर् आस्क् हर् क्वेश्चन्. ऐ वांट् टु लिसन् टु हर्.
Okay, I'll ask in English. Purva slide, there is a question, Balakaha kutra asti, and the answer is Balakaha asande asti. Okay. So, I just want to know what asande, asanda is. Asana, I thought it was asana. Asana is seat, so asanda is also seat, or asanda is chair or bench or something like that.
Both are seats.
Okay.
We have to understand one thing here. Earlier, we had only some kind of posture that we used to sit on the ground.
Yeah.
So that is asana.
Okay.
Now, the chair has come.
Okay.
So every language if you take, may I know your mother tongue?
Kannada.
Okay. Even in Kannada, if you want to say, what do you say it for chair? Just chair only.
Kurchi.
Yeah. Okay. Because then the language will be created for that. I mean, a word will be coined for that. So that way you can assume asanda is for chair, but technically both are seats.
Okay, I got it, Bhagini. New word created for some English, something new that I was.
For example, computer is a recent creation.
Yeah.
Then you will say sanganakam. You cannot find it in Purana or Vedas.
Yeah, okay.
Now we keep even that in Kolu, when we celebrate Navaratra.
Yes.
Right?
yeah.
But there is nothing specified in Devi Bhagavatam saying, look, you should keep your phone and computer, otherwise that's it. I will not make it work properly. Devi did not say it, but we yeah. keep, because we yeah. respect that as well.
Yeah, okay.
Mm. Because that is what is making us learn something or share something.
Mm.
So likewise, whatever you see new things, they take it from some root. Asana is the basic thing. So for the particular object of somewhere, some on which something, on which you can sit, then they've made it asanda.
Okay, so bench, chair, we can use asanda for all of them.
Yeah, you can use. If you're going to sit, then you can use.
Okay. Anything to sit on?
Anything to sit on can be called asanda.
Asanda.
Even for sofa, I heard it is asanda mancha.
Asanda mancha, okay.
Asanda mancha is sofa. So they've coined some new words for all those.
Okay. Dhanyavad, Bhagini.
It's good that you asked such questions. Interesting to answer. Swagatam. I forgot who is going to say the next one. I called somebody, but whom did I call?
Yeah, Naina, my
sister. Ah, sure. Patatu, Bhagini. Are you able to see my screen?
Falani. Yeah, Falani Putra Santi.
No, first read this. There is one picture before prior to that.
Okay. Jalam kutra asti. Jalam chashake asti.
Chashake asti. Remember, for spoon we use chamase. For glass we are using chashake. So you also understand that in glass, in spoon, we are using chashake, chamashe. Asande. So also please make a note on that, and you can underline or maybe you can note it down as in glass, in the chair. Okay, asu etatapi patatu. Bhagini, can you please read the aspect?
Falani putra santi. Falani Kandole Santi.
Okay, you're reading this, is it? Falani Kandole Santi. Samyak. Dhanyavada. Vatsalya Bhagini.
Phalani Kutra Santi. Phalani Vrikshe Santi.
Samyak.
Bhojanam Kutra Asti. Bhojanam Sthalikayam Asti.
Samyak. Youngest member is reading so well. Dhanyavada. So the things to be noticed here, as we already learned Kutra. Kutra means where. Okay, Kutra is where. So the things we learned is Asti. Asti is singular. To say it is there. Santi is plural. To say those are all there. For example, Phalam Kutra Asti. Phalani kutra santi. And to say in, we are using a at the end. Vrikshe, kandole, asande, chamase, all that. But when it is a strilinga pada, like droni, it's of course a pullinga pada, but ikaranta pullinga pada, then the form changes to dronyam, pushkaranyam, Thalikayam. Thalika is a Sthrilinga pada. Thalika, Thalikayam. So all these differences you can note it down. Please listen to the recording once again. See it. Note it down in your notebook. You have a category. Like what is singular? What comes for that in plural? And what are all the words that we have learned today? One was kim. Kim is what? Bhavatyaha nama kim. Or bhavataha nama kim. And second thing, we saw Kutra. This we did even before. Kutra is where. Pustakam Kutra Asti. Pustakani Kutra Santi. And then we saw Kimartham. Kimartham, I did not take anything for that. You just remember just Kimartham and Kutaha. Kutaha is from where. Kimartham is how. So Kimartham is how and Kutaha is from where. And visa
Bhagini,
how many?
Bhagini, Kimartham is why, is it?
Yeah, Kimartham is why.
Okay.
किमर्थं कुतः कति एनी डाउट इन दिस सो फार और कैन वी क्लोज द क्लास फॉर टुडे ओके आई अस्यूम दैट एवरीबॉडी अंडरस्टैंड्स
प्लीज भगिनी गृहकार्यं नास्ति वा
गृहकार्यं प्रथमं आई डोंट थिंक एवरीवन हैज अंडरस्टूड इवन भवतः भवत्याः लेट अस फर्स्ट लर्न वन्स अगेन so yeah that way there is no homework only that is homework actually let me see at least then if people read please spend some time in reading otherwise there is no point in attending the class you got 1 week of time for the next class make sure you read properly everything and then come vatsalya bagini ek animation bagini somebody called me I don't know who.
Yeah, Bhagini.
Yes.
Bhagini?
Vadatu Mahodaya, I can hear you.
Kimartam how? Kutaha from where, right? Is that yeah. What I have taken down?
Yeah. Vatsalya Bhagini, can you please do the Shanti Mantra?
Can you please show me the slide?
One second. Give me a moment.
Yes.
I actually changed the slide, so I missed it somewhere. Give me a minute.
Yeah, sure.
Sharing my screen. Drashtum shaknoti va?
Idan
patak. Astu patak.
Om sarve sham swastir bhavatu. Sarve sham shantir bhavatu. Sarve sham purnam bhavatu. सर्वेषां मङ्गलं भवतु ॐ शान्ति शान्ति शान्तिः
धन्यवादः सर्वेषां पुनर्मिलामः
धन्यवादः भगिनी धन्यवादः